इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः सुरेश चन्द शर्मा। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्र मोदी अद्य स्वीय पञ्चदेशानां यात्रायाः चतुर्थे चरणे ब्राजील देशस्य रियो डी जेनेरियो इति नगरं सम्प्राप्तः। एतद् यात्रान्तर्गतं श्रीमोदी सप्तदशे ब्रिक्स शिखर सम्मेलने भागं गृह्णीयात्। शिखर सम्मेलनान्तर्गतं प्रधानमन्त्री श्रीनरेन्द्र मोदी वैश्विक शासने शान्ति सुरक्षा बहुपक्षवाद सुदृढीकरणम् अथ कृत्रिम बुद्धिमत्ता उपयोगं जलवायु कार्यान्वयनं वैश्विक स्वास्थ्यम् आर्थिकं वित्तीय प्रकरणानि च समेत्य प्रमुखेषु विषयेषु विचारान् विनिमयीकरिष्यति। शिखर सम्मेलनावधौ प्रधानमन्त्रिणः मोदिनः नैकेषु द्विपक्षीय उपवेशनेषु भागग्रहणस्य सम्भावनापि वर्तते। श्रीमोदी ब्रासिलिया इत्यत्रापि गमिष्यति, यत्र श्रीमोदी राष्ट्रपतिना लुइस इनासियो लुला दा सिल्वा इत्यमुना साकं व्यापार रक्षा ऊर्जा अंतरिक्ष प्रविधि कृषि स्वास्थ्य इत्यादीनां विषये द्विपक्षीयां चर्चां विधास्यति। प्रधानमन्त्री श्रीनरेन्द्र मोदी गतदिने स्वस्याः पञ्चराष्ट्रिय यात्रायाः तृतीये चरणे अर्जेण्टीना देशस्य राजधानीं ब्यूनस एरेस नगरं प्राप्तवान्, यस्योद्देश्यं ग्लोबल साउथ इत्यनेन सह भारतस्य सम्बन्धं सुदृढीकरणं वर्तते। अर्जेण्टीनिया देशस्य राजधान्याम् आगत्य विशिष्टेन शास्त्रीय नृत्य प्रदर्शनेन भारतीय समुदायेन तस्य स्वागतं कृतम्। व्यूहात्मक सहभागित्वं सुदृढं कर्तुम् उभयोः देशयोः मध्ये सहयोगस्य नूतनान् मार्गान् उद्घाटयितुं च गतदिने सायंकाले प्रधानमन्त्रिणः प्रतिनिधिस्तरीय वार्तालापः सम्पन्नः। प्रधानमन्त्री मोदी त्रिनिदाद एण्ड टोबेगो इत्यस्य संसदः संयुक्त सम्मेलनमपि समबोधयत्। अस्मिन् अवसरे भाषणं कुर्वन् श्रीमोदी प्रोक्तवान् यत् ग्लोबल साउथ इत्यस्मै उच्चस्तरीयं योग्यस्थानञ्च दातुं भारतं स्वसहभागिभिः सह कार्यं करिष्यति। केन्द्रीयः गृह सहकारिता मन्त्री अमितशाहः गतदिने गुजरातस्य आनन्दनगरे देशस्य प्रथम सहकारिता विश्वविद्यालयरूपेण त्रिभुवन सहकारी विश्वविद्यालयस्य शिलान्यासं कृतवान्। कार्यक्रमावसरे श्रीशाहः प्रोक्तवान् यत् गतचतुर्वर्षेषु सहकारमन्त्रालयेन षष्टि नूतनानि उपक्रमाणि प्रारब्धानि। सहकारमन्त्रालयस्य स्थापना कोटिशः निर्धनानां ग्रामीणानाञ्च जीवने आशां जनयितुम् अभवदिति।
आज जो हम करने जा रहे त्रिभुवन सहकारी यूनिवर्सिटी का शिलान्यास करने जा रहे हैं, वो सहकारिता क्षेत्र को मजबूत करने के लिए सारी की सारी कमियों की पूर्ति करने वाला ये एकमात्र इनिशिएटिव है।
अमेरिका देशे टेक्सास नगरे अति जल प्रवाह कारणेन न्यूनातिन्यूनं द्वात्रिंशत् संख्याकाः जनाः कालकवलिताः, येषु एकविंशति संख्याकाः वयस्काः अपि वर्तन्ते। एतदनन्तरं तत्र आपत सुरक्षाबलैः आपत रक्षा कार्यान्वयनं वृहत् स्तरे चालितम्। एतद् अधिकृत्य संचार तन्त्र पटले प्रधानमन्त्री श्रीमोदी अमेरिकीय शासनाय शोक संतप्त जनेभ्यश्च स्वीय संवेदना प्रकटितवान्। संयुक्त राज्य अमेरिका देशस्य न्याय विभागेन भारतीयाः अधिकारिणः संसूचिताः यत् आर्थिक अभियुक्तस्य नीरव मोदिनः भ्राता निहल मोदी शुक्रवासरे अमेरिकीय अधिकारिभिः निगडितः। अवधेयं यत् निहल मोदी पंजाब नेशनल बैंक प्रकरणे भारते वांछितः वर्तते। अन्ते च क्रीडा वार्तासु। टेनिस क्रीडायां शीर्षांक धारकः जैनिक सिनर इत्यसौ पेट्रो मार्टिनेज इत्यमुं 6-1, 6-3, 6-1 इत्यन्तरालैः पराभूय चतुर्थे वर्षे विमल्डन प्रतियोगितायाः पुरुषैकल वर्गे चतुर्थे चरणे सम्प्रविष्टः। इति वार्ताः।